अग्निमीले पुरोहितं यज्ञस्य देवमृत्विजम् होतारं रत्नधातमम् ऋग्वेदात्मने सूर्यनारायणस्वामिने नमः इषेत्वोर्जे त्वा वायवस्तोपायवस्तदेवो वत्सविता प्रार्पयसु श्रेष्ठतमाय कर्मणे यजुर्वेदात्मने सूर्यनारायणस्वामिने नमः अग्न आयाहि वीतये धृणानो हव्यदातये निहोता सत्सि बर्हिषे सामवेदात्मने सूर्यनारायणस्वामिने नमः शन्नो देवीरभिष्टय आपो भवन्तु पीतये शय्योरविस्रवन्तु नः अथर्ववेदात्मने सूर्यनारायणस्वामिने नमः घृणिः सूर्य आदित्यो न प्रभावात्यक्षरम् मदुक्षरन्ति तद्रसम् सत्यम् वै तद्रसमापो ज्योतिरसोऽमृतम् ब्रह्म भूर्भुवः सुवरो छायासुवर्चलाम्बासमेतश्रीसूर्यनारायणस्वामिने नमः तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य विश्वमाभासि रोचनम् उपयाम गृहीतोऽसि सूर्याय त्वा ब्राजस्वत एष ते योनिः सूर्याय त्वा ब्राजस्वते छायासुवच्चलाम्बासमेत श्रीसूर्यनारायणस्वामिने नमः ॐ ह्राम् उद्यन्नद्य मित्रमहः मित्राय नमः ॐ ह्रीम् आरोहन्नुत्तराम् दिवम् रवये नमः ॐ ह्रूम् रुद्रोगम् मम सूर्य सूर्याय नमः ॐ ह्रैं हरिमाणम् च नाशय भानवे नमः ॐ ह्रौं शुकेषु मे हरिमाणम् खगाय नमः ॐ ह्रः रोपणाकासु दध्मसि पूष्णे नमः ॐ ह्राम् अतो हारिद्रवेषु मे हिरण्यगर्भाय नमः ॐ ह्रीं हरिमाणन्निदध्मसि मरीचये नमः ॐ ह्रूं उदगादयमादित्यः आदित्याय नमः ॐ ह्रैं विश्वेन सहसा सह सवित्रे नमः ॐ ह्रौं द्विषन्तम् मम रन्धयन् अर्काय नमः ॐ ह्रः मो अहम् द्विषतोरथम् भास्कराय नमः ॐ ह्रां ह्रीं उद्यन्नद्यमित्रमहः आरोहन्नुत्तराम् दिवम् मित्ररविभ्याम् नमः ॐ ह्रूं ह्रैं रुद्रोगम् मम सूर्य हरिमाणम् च नाशय सूर्यभानुभ्याम् नमः ॐ ह्रौं ह्रः शुकेषु मे हरिमाणम् रोपणाकासु दध्मसि खगपोषभ्याम् नमः ॐ ह्रां ह्रीं अतो हारिद्रवेषु मे हरिमाणन्निदध्मसि हिरण्यगर्भमरीचिभ्याम् नमः ॐ ह्रूं ह्रैं उदगादयमादित्यः विश्वेन सहसा सह आदित्यसवितृभ्याम् नमः ॐ ह्रौं ह्रः द्विषन्तम् मम रन्धयन् मो अहम् द्विषतोरथम् अर्कभास्कराभ्याम् नमः ॐ उद्यन्नद्यमित्रमहः आरोहन्नुत्तराम् दिवम् हृद्रोगम् मम सूर्य हरिमाणम् च नाशय मित्ररविसूर्यभानुभ्यो नमः ॐ ह्रौं ह्रहः ह्रां ह्रीं शुकेषु मे हरिमाणम् रोपणाकासु धद्मसि अतो हारिद्रवेषु मे हरिमाणम् निधद्मसि खगपूषहिरण्यगर्भमरीचिभ्यो नमः ॐ ह्रूं ह्रैं ह्रौं ह्रहः उदगादयमादित्यः विश्वेन सहसा सह द्विषन्तम् मम रन्धयन् मो अहम् द्विषतो रथम् आदित्यसवित्रर्कभास्करेभ्यो नमः ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रहः उद्यन्नद्यमित्रमहः आरोहन्नुत्तराम् दिवम् हृद्रोगम् मम सूर्य हरिमाणम् च नाशय शुकेषु मे हरिमाणम् रोपणाकासु धद्मसि मित्ररविसूर्यभानुखगपूषभ्यो नमः ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रहः अतो हारिद्रवेषु मे हरिमाणम् निधद्मसि उदगादयमादित्यः विश्वेन सहसा सह द्विषम् तम् मम रन्धयन् मो अहम् द्विषतो रथम् हिरण्यगर्भमरीच्यादित्यसवित्रर्कभास्करेभ्यो नमः ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रहः ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रहः उद्यन्नद्यमित्रमहः आरोहन्नुत्तराम् दिवम् हृद्रोगम् मम सूर्य हरिमाणम् च नाशय शुकेषु मे हरिमाणम् रोपणाकासु धद्मसि अतो हारिद्रवेषु मे हरिमाणम् निधद्मसि उदगादयमादित्यः विश्वेन सहसा सह द्विषम् तम् मम रन्धयन् मो अहम् द्विषतो रथम् मित्ररविसूर्यभानुभगपूषहिरण्यगर्भमरीच्यादित्यसवित्रर्कभास्करेभ्यो नमः आदित्यो वा एष एतन्मण्डलम् तपति तत्र तारचस्तदृचामण्डलगुंसऋचाल्लोकोदय एष एतस्मिन्मण्डले चिर्दीप्यते तानि सामानि ससाम्नाम् लोकोदय एष एतस्मिन्मण्डले चिषिपुरुषस्तानि यजोगुंषि स यजुषामण्डलगुंस यजुषाल्लोकस्यैषा त्रय्येव विद्यातपति येषो तरादित्ये हिरण्मयः पुरुषः छाया सुवर्चला अम्बा समेत श्रीसूर्यनारायणस्वामिने नमः आदित्यो वै तेजोजो बलम् यशश्चक्षुश्रोत्रमात्मा मनो मन्युर्मनुर्मृत्युः सत्यो मित्रो वायुराकाशप्राणो लोकपालः कक्किङ्कम् तत्सत्यमन्नमृतो जीवो विश्वकतमः स्वयम्बु ब्रह्मैतदमृत एष पुरुष एष भूतानामधिपतिर्ब्रह्मणः सायुज्यगुंस लोकतामाप्नो चेतासामेव देवता नागुंसायुज्यगुम् साष्टितागुम् समानलोकतामाप्नोति य एवम् वेदेत्युपनिषत् छाया सुवच्चला अम्बा समेत श्रीसूर्यनारायणस्वामिने नमः ॐ शान्ति शान्ति शान्तिः।